इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। रामनवमी पर्वणः शुभावसरे ह्यः प्रधानमन्त्री नरेन्द्र मोदी तमिलनाडु राज्यस्य नवीन पम्बन रेल सेतोः उद्घाटनं विहितवान्। प्रधानमन्त्रिणा तमिलनाडौ 300 कोट्यधिकाष्टसहस्ररूप्यकाणां विभिन्नानां विकासात्मक रेलमार्ग परियोजनानां आधारशिला च संस्थाप्य राष्ट्राय समर्पिता। तेनोदीरितं यत् तमिलनाडोः विकासः राष्ट्रस्य विकासे योगदानमस्ति, परियोजनेयं रामनवम्याम् उपहारवद् वर्तते इति असौ उल्लिखितवान्। सममेव संगमसाहित्ये भगवतः रामस्य उल्लेखम् असौ अकरोत्। तेनोक्तं यत् अस्मिन् दिवसे प्राचीनरामेश्वरं मन्दिरे पूजा अर्चना अपि च परियोजनायाः समर्पणं च अलौकिकक्षणवत् अस्ति।
I feel blessed that I could pray at the Ramana Swami temple today. On this special day, I got the opportunity to hand over development project worth 8,300 crore rupees. These rail and road projects will boost connectivity in Tamil Nadu.
अयन् रेलसेतुः वास्तुकलायाः एकः अद्भुतः प्रतिदर्शो विद्यते, यो हि देशस्य प्रथमः वर्टिकल लिफ्ट इति ऊर्ध्वाधरोन्नयन सागरीय सेतुः अस्ति। असौ तावत् अस्य अद्वितीयकार्यस्य कृते निर्माणकर्तृभ्यः च धन्यवादज्ञापनं विहितवान्। श्रीमोदी उक्तवान् यत् अनया परियोजनया व्यापारः पर्यटनं च वर्धिष्यते, अपि च जनेभ्यः वृत्त्यवसराः लप्स्यन्ते। राष्ट्रपतिः द्रौपदी मुर्मुः पुर्तगाल स्लोवाकिया देशयोः राजकीय यात्रायाः प्रथमे चरणे लिस्बन नगरं सम्प्राप्तवती। पुर्तगाल देशस्य स्वयात्रावधौ राष्ट्रपतिः मुर्मुः स्वसमकक्षेण राष्ट्रपतिना मार्सेलो रेबेलो डी सूसा इत्यनेन सह मिलित्वा प्रतिनिधिमण्डलस्तरस्य वार्तां करिष्यति। सा पुर्तगालस्य प्रधानमन्त्री लुइस मोन्टेनेग्रो, राष्ट्रियसभायाः अध्यक्षः जोस पेड्रो अगुइर ब्रेंको इत्युभाभ्यां सहमेलनं करिष्यति। स्लोवाकिया देशे राष्ट्रपतिः मुर्मुः स्लोवाकिया देशस्य राष्ट्रपतिना पीटर पेलेग्रिनी इत्यनेन, प्रधानमन्त्रिणा रॉबर्ट फिको इत्यनेन च सहापि द्विपक्षीयोपवेशनं करिष्यति। स्वास्थ्यजागरूकतायाः संवर्धनाय अद्य सम्पूर्णे विश्वे विश्वस्वास्थ्यदिवसः आचर्यते। अयं दिवसः प्रतिवर्षम् आचर्यते, प्रतिवर्षं च विश्वस्य जनानां समाह्वानपूर्णे विशिष्टस्वास्थ्यविषये ध्यानम् आकर्षयति। अष्टचत्वारिंशोत्तर ऊनविंशतितमे वर्षे अप्रैलमासस्य सप्तमे दिनाङ्के विश्वस्वास्थ्यसङ्घटनस्य स्थापनायाः वार्षिकोत्सवः अस्ति। अस्मिन् वर्षे विश्वस्वास्थ्यदिवसस्य विषयः स्वास्थ्ययुतः आरम्भः आसान्वितं भविष्यम् इति अस्ति। रोगानां मानसिकस्वास्थ्यसमाह्वानानां निवारकपरिचर्यायाः महत्त्वस्य च विषये जागरूकतायाः वर्धनेन सह सम्पूर्णे विश्वे स्वास्थ्यं सर्वोच्चप्राथमिकतारूपेण उद्भूतम् अस्ति। पूर्वविश्वविजेता रुद्राक्षबालासाहेब पाटिलः ह्यः 25,000 ISSF विश्वचषक ब्यूनस आयर्स इत्यस्यां पुरुषाणां 10 मीटर एयर राइफल शूटिंग इत्यस्यां स्पर्धायां स्वर्णपदकं प्राप्तवान्। इदं ISSF विश्वचषक स्पर्धायां रुद्राक्षपाटिलस्य द्वितीयं स्वर्णपदकम् अस्ति। IPL 20-20 इत्यस्यां क्रिकेटमालिकायां गतरात्रौ गुजरात टाइटन्स दलेन हैदराबादनगरे सनराइजर्स हैदराबाद दलं 7-2 पराजितम्। अद्य मुम्बईनगरस्य वानखेड़े क्रीडांगणे मुंबई इंडियंस दलं रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखी करिष्यति। क्रीडायाः आरंभः सायं 7:30 भविष्यति। इति वार्ताः।